अथ सप्तमः स्कन्धः अथ षष्ठोऽध्यायः प्रह्लाद उवाच कौमार आचरेत प्राज्ञो धर्मान् भागवतानिह दुर्लभम् मानुषम् जन्म तदप्य ध्रुवमर्थदम् यथा हि पुरुषस्येह विश्वः पादोपसर्पणम् यदेष सर्वभूतानाम् प्रिय आत्मेश्वरः सुहृत् सुखमैन्द्रियकम् दैत्या देहयोगेन देहिनाम् सर्वत्र लभ्यते दैवात् यथा दुःखमयत्नतः तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् न तथा विन्दते क्षेमम् मुकुन्दचरणाम्बुजम् ततो जतेत कुशलः क्षेमाय भयमाश्रितः शरीरम् पौरुषम् यावन्न विपद्येत पुष्कलम् पुंसो वर्षशतम् ह्यायुस्तदर्धम् चाजितात्मनः निष्फलम् जदसौ रात्र्याम् श्वेतेन्धम् प्रापितस्तमः मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः जरया ग्रस्तदेहस्य जात्यकल्पस्य विंशतिः दुरापुरेण कामेन मोहेन च बलीयसा शेषम् गृहेषु सत्तस्य प्रमत्तस्यापयातिः को गृहेषु पुमान् सक्तम् आत्मानमजितेन्द्रियः स्नेहपाशैर्दृढैर्बद्धम् उत्सहेत विमोचितुम् को नोऽर्थतृष्णाम् विसृजेत् प्राण्येभ्योऽपियीप्सितः यम् क्रीडात्यशुभिः पृष्ठैस्तस्करः सेवको वणि कथम् प्रियाया अनुकम्पितायः सङ्गम् रहस्यम् रुचिरांश मन्त्रान् सुहृत्सु च स्नेहसितः शिशूनाम् कलाक्षराणामनुरक्तचित्तः पुत्रान् स्मरंस्ताद्दुहितिर्हृदय्या भ्रातॄन् स्वशिर्वा पितरौ च दीनौ गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तिश्च कुल्यः पशुभृत्यवर्गान् त्यजेत् कोशस्कृतिवेहमानः कर्माणि लोभादवितृप्तकामः औपस्त्यजैवम् बहुमन्यमानः कथम् विरज्येत दुरन्तमोहः कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थम् विहतम् प्रमत्तः सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषम् परवित्तहर्तुः प्रत्येह चाध्याप्यजितेन्द्रियस्तदशान्तकामो हरते कुटुम्बे विद्वान्पित्थम् दनुजः कुटुम्बम् पुष्णम् स्वलोकायन कल्पते वै यः स्वीयपारक्य विभिन्न भावः तमः प्रपद्येत यथा विमूढः यतो न कश्चित् क्वच कुत्रचिद्वा दीनः स्वमात्मानमलम् समर्थः विमोचितुम् कामदृशाम् विहार क्रीडा मृगोजन्निगडो विसर्गः ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गम् विषयात्मकेषु उपेत नारायणमादिदेवम् स मुक्तसङ्गैरिषितोपवर्गः न यच्युतम् प्रीणयतो बहुवायासो सुरात्मजः आत्मत्वात् सर्वभूतानाम् सिद्धत्वादिह सर्वतः परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु भौतिकेषु विकारेषु भूतेषु अथ महत्सु च गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा एक एव परो यात्मा भगवान् ईश्वरो व्ययः प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयं व्याप्य व्यापक निर्देश्यो य निर्देश्यो विकल्पितः केवलानुभवानन्द स्वरूपः परमेश्वरः मायान्तरहितैश्वर्य ईयते गुणसर्गया तस्मात् सर्वेषु भूतेषु दयां कुरुत सहृदम् आसुरं भावमुन्मुच्य जयातुस्य तथोक्षजः तुष्टे च तत्र किमलभ्यमनन्तयाद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः धर्मादयः किमगुणेन च काङ्क्षितेन सारं जुषां चरणयोरुपगायताम् धर्मार्थ कामैति योऽभिहितस्त्रिवर्ग इच्छात्रयी नयदमौ विविधा च वार्ता मन्ये तदेतदखिलम् निगमस्य सत्यम् स्वात्मार्पणम् स्वसुहृदः परमस्य पुंसः ज्ञानम् तदेतदमलम् दुर्वापमाह नारायणो नरसखः किल नारदाय एकान्तिनाम् भगवतस्तदकिञ्चनानाम् पादारविन्दरजसा प्लुतदेहिनाम् स्यात् श्रुतमेतन्मया पूर्वम् ज्ञानम् विज्ञानसंयुतम् धर्मम् भागवतम् शुद्धम् नारदा ते एव दर्शनात् दैत्यपुत्र उचुः प्रहलाद त्वम् वयम् चापि नर्तिन्यम् विद्महे गुरुम् एताभ्याम् गुरुपुत्राभ्याम् बालानामपि हीश्वरौ बालस्यान्तः पुरस्थस्य महत्सङ्गो दुरन्वयः छिन्धिनः संशयम् सम्यम् स्याचिद् विश्वम्भकारणम् इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां सप्तमस्कन्धे प्रह्लादानुचरिते षष्ठोऽध्यायः।